श्रोतार एकवारं पुनः भवतां समेषां स्वागतमस्ति संस्कृत साप्ताहिकीति नामाख्ये विशिष्टे कार्यक्रमे अभिवादये। अहमस्मि निधिः तिवारी। समेभ्यः श्रोतृजनेभ्यः स्वीय नमोवचांसि समर्पयामि। श्रोतारः, भारतवर्षस्य विशिष्ट धार्मिक आध्यात्मिक सांस्कृतिक केन्द्रत्वेन प्रयागराजस्य विशिष्टं स्थानं विद्यते। भवन्तः यथा जानन्ति एव यत् भारतं तीर्थानां देशो विद्यते, तावत् अस्य वर्षस्य महाकुम्भस्य आयोजनं प्रयागराजे एव मासे एतस्मिन् त्रयोदश दिनांकतः फरवरी मासे षड्विंशति दिनांक पर्यन्तं प्रचलिष्यति। अस्तु तावत् एनं क्रमम् अभिलक्ष्य अग्रेसरामो वयं सुभाषितानुभागं प्रति, यत्र अस्माकं सहयोगिनी साधना शर्मापि कुम्भ महात्म्ययुतं एकं कल्याणप्रदं सुभाषितं श्रावयति।
तुला मकरमीशेषु प्रातः स्नायी सदा भवेत्, हविष्यं ब्रह्मचर्यं च महापातकनाशनम्। अर्थात् सूर्य के तुला, मकर और मेष में होने पर सदा प्रातः स्नान करना चाहिए, तब हविष्य के अन्न का भक्षण करना चाहिए और ब्रह्मचर्य का पालन करना चाहिए। इससे महापाप का भी विनाश हो जाता है।
श्रोतारः, अधुना अस्मदीया सहभागिनी रिंकू जोशी गीत ताल लययुतम् एकं स्तोत्र पाठं गायति। आयान्तु मिलित्वा अस्य भक्तिरसस्य आनन्दम् अनुभवामो वयम्।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं, भक्तावासं स्मरि नित्यं मायुः कामार्थसिद्धये। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्, तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्, लम्बोदरं पञ्चमं च षष्ठं विकटमेव च, सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टकम्, नवमं भालचन्द्रं च दशमं तु विनायकम्, एकादशं गणपतिं द्वादशं तु गजाननम्, द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः, न च विघ्नाभयं तस्य सर्वसिद्धिकरं परम्।
श्रोतृवृन्दाः, समाजगत विषयान् प्रति भवन्तः सर्वे जिज्ञासवः एव भवन्ति, ततः परं देश विदेशयोः घटनाक्रमान् अधुना वदति अस्माकं समूहे कार्यकर्त्री सुषमा कुमारी।
भोपाल प्रदेशे गैस त्रासद्यः चत्वारिंशत् वर्षानन्तरं यूनियन कार्बाइड फैक्टरी इत्यस्मात् दूषित अवकरः सुरक्षितरीत्या उपयोगाय स्थानान्तरितः। महाराष्ट्रे गढ़चिरौली जनपदे एकादश माओवादिनः मुख्यमन्त्रिणं देवेन्द्र फडणवीस समक्षं समर्पणं विहितम्। विगत वर्षस्य जीएसटी संग्रहः वर्षद्वयस्य तुलनायां 7.3% विवर्ध्य लक्षोत्तर 770,000 कोट्यात्मकः सञ्जातः। गणतन्त्र दिवस पदयात्रा, बीटिंग रिट्रीट इत्यस्माय च दर्शकपत्राणां विक्रयणं प्रारब्धं जातम्। अमेरिकायाः न्यू ओरलीन्स नगरे सञ्जाते आतंकी आक्रमणे 15 जनाः मृताः, 35 चाहताः सूच्यन्ते। विदेशमन्त्री डॉ एस जयशंकरः श्वः कतर देशस्य प्रधानमन्त्रिणं, विदेशमन्त्रिणं च शेख मोहम्मद बिन अब्दुल रहमानं बिन जसीम अल थानीं मेलनं विदधात्। ऋतु विभागेन उत्तर प्रदेशे भीषण शीतलहर्यः अनुमानः अभिव्यक्तः, अपि च पंजाब हरियाणा चण्डीगढ़ मध्यप्रदेशे चापि भीषण शैत्यानुमानः प्रकाशितः।
श्रोतृ समूहाः, कालः समागतः ज्ञानाभिवर्धकस्य संवादस्य, यस्मिन् अद्य आकाशवाण्यां समुपस्थितो विद्यते श्री लालबहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालयस्य नव्य न्याय दर्शन विभागीयः आचार्यः महानन्द झा वर्यः। एतेन विदुषा सह ज्ञानयुतं साक्षात्कारं विदधाति निधि झाः।
अभिवादये। अद्य ज्ञान विज्ञान प्रभागे उपतिष्ठन्ते न्यायशास्त्रस्य निष्णाताः श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालये न्यायशास्त्रस्य प्राध्यापकाः प्रोफेसर महानंद झाः महाभागाः। भवताम् आकाशवाण्यां प्रणमाञ्जलिं वितीर्य इयमहं निधि झाः स्वागतं व्याचष्टे।
नमो नमः। अहमस्मि न्याय विभागीयः अध्यापकः महानंद झाः।
महोदयः, न्यायस्य उभौ संप्रदायौ शास्त्रवाङ्मये समुपलक्ष्यते, तत्र तावत् प्राचीन नव्य न्याययोः को भेदः?
एवं, न्यायशास्त्रे विभागद्वयम् अस्ति। एकः विभागः प्राचीनन्यायविभागः, अपरः विभागः नव्यन्यायविभागः। सूत्रकारः गौतमः तावत् प्राचीनन्यायविभागे आगच्छति, अनन्तरं गङ्गेशोपाध्यायादारभ्य अद्यावधिपर्यन्तं ये आचार्याः भवन्ति ते नव्यन्यायविभागे आगच्छन्ति। प्राचीनन्याय नव्यन्याययोः को भेदः इति जिज्ञासायां तावत् प्राचीनन्यायिकाः प्रमेयप्रधानवादिनः, ते प्रमेयं सर्वथा स्वीकुर्वन्तस्तिष्ठन्ति। अपरञ्च ये नव्यन्यायिकाः ते प्रमाणवादिनः भवन्ति। सूत्रे आद्ये एव सूत्रे प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयव तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छल जातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः इति आदिमे सूत्रे तावत् प्रमाणस्य चर्चा कृता विद्यते, अनन्तरं प्रमेयस्य चर्चा भवति। अतः नव्यनैयायिकाः प्राथम्येन प्रमाणवादिनः भवन्ति, तत्र प्रमाणस्य चर्चा बाहुल्येन अस्ति। अथ च प्राचीनन्यायप्रस्थाने प्रमेयस्य चर्चा बाहुल्येन भवति। एतावता एव उभयोः भेदः।
बहु समीचीनं महाभागाः। अनन्तरं मनसि जिज्ञासा वर्वर्ति यत् काणादं पाणिनीयं च सर्वशास्त्रोपकारकमिति लोकोक्तिः सुविख्याता एव, अतः लोकोपकारकस्य न्यायशास्त्रस्य साम्प्रतिके युगे का प्रासंगिकता?
समीचीनः प्रश्नः। काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इति काचित् उक्तिः विद्यते प्रसिद्धा। काणादं तावत् न्यायशास्त्रमेव। कणादप्रणीतं दर्शनं काणाददर्शनम्। एतावता काणादशब्देन कणादप्रणीतवैशेषिकसूत्राणि अथ च गौतमप्रणीतानि न्यायसूत्राणि भवन्ति। उभयोः ग्रहणं काणादशब्देन भवति। एवं च पाणिनी प्रणीतं यत् शास्त्रं पाणिनीयशास्त्रम् अष्टाध्याय्यात्मकं, तदपि शास्त्रं सर्वेषां शास्त्राणाम् उपकारकं भवति। अनयोः शास्त्रयोः कियदवदानं विद्यते समग्रेपि संस्कृतवाङ्मये इति न तिरोहितं भवति विदुषां मध्ये। किमपि वयं प्रयोगं कुर्मः, किमपि आचरामः, तत्र व्याकरणशास्त्रस्य कियद् उपयोगिता इति एकम् उदाहरणं तावत् वक्तुम् इच्छामि। एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग् भवति। एकेन एव साधुशब्दप्रयोगेन स्वर्गप्राप्तिः भवति। यावत् दर्शनम् अस्ति भारतीयवाङ्मये सर्वेषां दर्शनानां तावत् एकं मुख्यं लक्ष्यमस्ति निःश्रेयसम्। यतोहि सर्वेपि शास्त्रकाराः मुक्तकण्ठेन वदन्ति निःश्रेयसप्राप्तिः एव शास्त्राध्ययनस्य मुख्यं प्रयोजनम्। अन्यत् सामाजिकं प्रयोजनमपि भवति, किन्तु मुख्यं लक्ष्यं निःश्रेयसप्राप्तिरेव। निःश्रेयसप्राप्तौ तावत् साधुशब्दप्रयोगस्य महती उपयोग आवश्यकता भवति। तथैव युक्तियुक्तं वचोग्राह्यम् इति उक्तिः अस्ति। युक्तियुक्तं वचनं कदा वक्तुं प्रभवति जनः? यदा न्यायशास्त्रस्य काणाददर्शनस्य ज्ञानं स्यात्। तथैव युक्तियुक्तं वचोग्राह्यम् इत्यनेन, एवं च एकः शब्दः सम्यक् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके च कामधुग् भवति इति पङ्क्तिद्वयमाध्यमेन वयं वक्तुं शक्नुमः यत् काणादं पाणनीयं च सर्वशास्त्रोपकारकम् इति।
बहु समीचीनम् आचार्याः। अन्तिमः प्रश्नः वर्तते, न्यायदर्शनं कठिनं क्लिष्टं चेति अवधारणा छात्राणां मनत्सु वर्वर्ति, न्यायशास्त्र कोविदैः भवद्भिः कथमेषा अवधारणा दूरीक्रियते?
किमपि कार्यं स्यात्, कुत्र वा गमनं भवेत्, सर्वं कठिनं भवति। यदि मनसि काठिन्यम् अनुभूयते तत् मानसिको दोषः। यदि शनैः कन्था शनैः पन्था शनैः पर्वतलङ्घनं शनैर्विद्या शनैः वित्तं पञ्चयितानि शनैः शनैः। विद्या तावत् शनैः एव आगच्छति। न्यायदर्शनं कठिनं नास्ति। किमपि शास्त्रं स्यात्, कापि विद्या भवेत्, कठिना न भवति कापि विद्या। किमपि शास्त्रं कठिनं न भवति। अध्ययने यदा वयं प्रतिकूलताम् अनुभवामः तदैव तद्दर्शनं तत्शास्त्रं सा विद्या कठिना भवति। यदि मनः निश्चयेन प्रपूरितं स्यात् तदा न किमपि कार्यं कठिनं न किमपि स्थानं कठिनं। कुत्रापि गन्तुं जनः शक्नोति, किमपि शास्त्रं पठितुं जनः शक्नोति। एतावता न्यायशास्त्रं कठिनम् एवम् अस्ति। न्यायशास्त्रस्य भाषा कठिना विद्यते इति अहं स्वीकरोमि। भाषायाः काठिन्यस्य कारणं किम्? यदा बौद्धाः अस्माकं वेदानां प्रचारप्रसारे बाधा उपस्थापयति, बौद्धाः भवेयुः, अन्ये चार्वाकाः भवेयुः, ये वेदान् तिरस्कारे संलग्नाः भवन्ति, तदा नव्यन्यायस्य जन्म आसीत्। तदनन्तरं भाषायां यादृशी सूक्ष्मता न्यायशास्त्रे अस्ति, परवर्तिकाले साहित्यकाराः अपि एतस्याः भाषायाः साहित्यिकाः अपि अवलम्बनं कृत्वा शास्त्रार्थे कुर्वन्तः सन्ति। अतः पारिभाषिकशब्दावल्याः निर्माणं स्यात्, भाषायाः यादृशं सौष्ठवं स्यात्, भाषायाः प्राञ्जलता बौद्धानां पराजयितुं चार्वाकानां पराजयितुं भाषायाः आविर्भावः गङ्गेशोपाध्यायात्, परवर्तीय आचार्याः गदाधरभट्टाचार्याः भवेयुः, जगदीश तर्कालङ्काराः भवेयुः, अन्येपि आचार्याः ये अभूवन् ते भाषायाः सौष्ठवे तेषां कार्याणि प्रथितानि सन्ति। अत एव भाषाकाठिन्यात् शास्त्रस्य काठिन्यम् इति तु प्रवादमात्रमेव। न्यायशास्त्रम् अतिसरलं, नातिकठिनं, किं वा साहित्यशास्त्रम् अतीव सरलं विद्यते? सरलं नास्ति। यदा वयं परिश्रमं कुर्मः तदा किमपि शास्त्रं कठिनं न भवति। एतावता न्यायशास्त्रमपि कठिनं नास्ति। यदि ध्यानेन अवगमनं स्यात् तदा एतत् शास्त्रमपि बहु समीचीनं बहु सरलं विद्यते।
बहु समीचीनं। रम्यो हि भवतां शब्दप्रवाहः, भवद्भ्यः अमूल्यमपि नैजं समयम् अस्मभ्यं कल्पितम्, एतदर्थं धन्यता वचांसि आविष्क्रियते मया।
धन्यवादः। नमो नमः। धन्यवादाः।
प्रणामः।
अयि श्रोतारः, अधुना क्रमो वर्तते संस्कृत दिग्दर्शन प्रभागस्य, यत्र हि विश्वेस्मिन् संस्कृतभाषायाः प्रवर्धनाय समायोक्ष्यमाणानाम् आयोजितानां च कार्यक्रमाणां विषये सविस्तरं प्रतिपादयति अस्मदीया सहयोगिनी निधि झाः।
उत्तरप्रदेशस्य प्रयागराजस्थे संगमस्थे क्षेत्रे कुम्भमेलापर्वणि अखिलमपि विश्वं समायास्यन्ति। असौ महाकुम्भः यत्र विश्वं भवत्यैकनीडम् इत्यमां पंक्तिं चरितार्थं करोति। इदं कुम्भ द्वादशवर्षेषु एकवारम् आयोज्यते, यत्र हि केन्द्रीयसंस्कृतविश्वविद्यालयेन संस्कृतवाङ्मये निगूहितज्ञानविज्ञानस्य प्रसारणाय महाकुम्भक्षेत्रे संस्कृतज्ञानकुम्भस्यापि आयोजनं क्रियते। ओडिशाविधानसभायाः अध्यक्षा सुरमा पाढी सहर्षं राष्ट्रियसंस्कृतविश्वविद्यालयस्य प्रशंसां कुर्वती अवोचत् यत् विश्वविद्यालयः पारंपरिक प्रकृतिं धारयन् आधुनिक प्रौद्योगिकीभिः सह संस्कृतस्य एकीकरणे
प्रत्यग्रम औनत्यम च प्राप्यमाणं वर्तते। धन्यवादाः।
अयि निर्मल मनस्काः बालाः, प्रभात कालात् शयन पर्यन्तं भवन्तः नैकानि कार्याणि सम्पादयन्ति। तावत् शास्त्रेषु दैनन्दिन कार्यं विधाय अनेके श्लोकाः सन्ति विरचिताः। तान् श्लोकान् श्रावयति अस्माकं सहयोगी कृष्णप्रसादोपाध्यायः।
अयि भो बालाः, अद्य वयं दैनन्दिन कार्य सम्बद्धान् काञ्चन श्लोकान् शृणुमः। यदा वयं शयनाद् उत्तिष्ठामः तदा करतलौ सम्पश्यन्तः उच्चारयामः। कराग्रे वसते लक्ष्मीः, करमध्ये सरस्वती, करमूले तु गोविन्दः, प्रभाते करदर्शनम्। तदनन्तरं यदा पद्भ्यां धरास्पर्शं कर्तुकामाः भवामः वयं तदा उच्चारयामः, समुद्रवसने देवि पर्वतस्तनमण्डले विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे। तथैव स्नानसमये स्नानजले सर्वाणि तीर्थजलानि आह्वयन्तः वयं वदामः, गङ्गे च यमुने चैव गोदावरि सरस्वति, नर्मदे सिन्धु कावेरि, जलेऽस्मिन् सन्निधिं कुरु इति। अस्तु बालाः, अन्यान् श्लोकान् पुनः कदापि वयं शृणुमः। धन्यवादाः।
निश्चप्रचम् लाभप्रदं भविष्यति एषः बालवल्लरी प्रभागः। प्रियाः सुहृत् श्रोतारः, इदानीम् अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतमिति, यत्र अस्माकं सहयोगिनी मुदिता वेतालः श्रावयति विविधासु संस्कृत हिन्दी भाषासु नानाविधवाक्यानि।
प्रथमं वाक्यमस्ति, सूर्यस्य गतिम् आधृत्य संक्रांति पर्व परिपाल्यते। पहला वाक्य है, सूर्य की गति के आधार पर मकर संक्रांति मनाई जाती है। मराठी में सूर्याच्या गति अनुसार मकर संक्रांति हा पर्व साजरा होतो। द्वितीयं वाक्यमस्ति, सौर माघ मासस्य प्रथमे दिने मकर संक्रांति पर्व आमान्यते। दूसरा वाक्य है, सौर माघ महीने के प्रथम दिन मकर संक्रांति मनाई जाती है। मराठी में सौर माघ महिन्याच्या पहिल्या दिवशी मकर संक्रांतीचा सण साजरा केला जातो। तृतीयं वाक्यमस्ति, अस्मात् दिनात् सूर्यः मकर राश्यां संचरति। तीसरा वाक्य है, इस दिन से सूर्य मकर राशि में प्रवेश करता है। मराठी में या दिवसापासून सूर्य मकर राशित प्रवेश घेतो। चतुर्थं वाक्यमस्ति, मकरस्थे सूर्य उत्तरायणम् अपि प्रारभते। चौथा वाक्य है, सूर्य के मकर राशि में प्रवेश करने पर उत्तरायण आरंभ होता है। मराठी में सूर्याच्या मकर राशित प्रवेशानंतर उत्तरायण प्रारंभ होतो। पंचमं वाक्यमस्ति, भारतस्य विविध भागेषु अस्मिन् दिने बहवः कार्यक्रमाः आयोज्यन्ते। पांचवा वाक्य है, भारत के विभिन्न भागों में इस दिन अनेक कार्यक्रम आयोजित किए जाते हैं। मराठी में भारताच्या विविध भागात या दिवशी पुष्कर कार्यक्रम आयोजित केले जातात। धन्यवादाः।
अहो सम्यक्, भवत्यै साधुवादाः। अयि श्रोतृजनाः, अधुना आगतः अस्ति समयः प्रस्थानवेलायाः, किञ्च अग्रिमे सप्ताहे अस्मिन्नेव काले एकम् अभिनवम् अङ्कम् आदाय पुनः उपस्थास्यामः। तावत्पर्यन्तं भवन्तः सर्वे स्वीयजिज्ञासां प्रतिपुष्टिप्रक्रियाम् अस्मान् प्रेषयितुं शक्नुवन्ति। अस्माकम् ईमेल संकेतो विद्यते nsdsanskrit@gmail.com इति। नमो नमः, जयतु संस्कृतं, जयतु भारतम्।